इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। लक्ष्यवेदिका मनुभाकरः ह्यः पेरिस ओलम्पिक प्रचल्यमाणायां ग्रीष्मकालिक ओलम्पिक क्रीडायां भारताय प्रथमं पदकं विजितवती। अपहराणे मेगा चतुष्कोणीय प्रतियोगितायाः द्वितीय दिवसे महिलावर्गे 10 मीटर मितस्याः एयर पिस्टल प्रतिस्पर्धायाः अन्तिमचक्रे कांस्यपदकं विजितवती। इमाम् उपलब्धिम् आलक्ष्य एषा भारतस्य प्रथमा महिला लक्ष्यवेदिका जाता। अत्रावसरे राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च मनुभाकर इत्यस्मै शुभकामनाः अपि अयच्छन्। राष्ट्रपतिः अकथयत् यत् मनुभाकराय देशः गौरवम् अनुभवति। तस्याः अनेन विजयेन युवमहिलाः प्रेरिताः भविष्यन्ति। प्रधानमन्त्रिणा दूरभाषमाध्यमेन तया सह वार्तालापं कृत्वा वर्धापनानि प्रख्यापितानि। पेरिस ओलम्पिक क्रीडाकुम्भस्य अद्य तृतीये दिवसे सर्वेषां भारतीयानां दृष्टिः भारतीय लक्ष्यवेदिकायां रमिता जिन्दल इत्यस्याम् उपरि अस्ति। अपरत्र पादोन एकवादने 10 मीटर मिते एयर पिस्टल मिश्रितदले पेरिस ओलम्पिक कांस्य पदक विजेत्री मनुभाकरः सरबजोत सिंहश्च अर्जुन सिंह चीमा रिदम सांगवानयोः च युगलं स्पर्धिष्यति। शिक्षा मन्त्रालयः अद्य नवदिल्ल्याः मानेकशॉ सेंटर इत्यस्मिन् सभागारे अखिल भारतीय शिक्षा समागम इत्याख्येन सह राष्ट्रिय शिक्षा नीतेः चतुर्थं वार्षिकोत्सवम् अपि समाचरिष्यति। अत्रावसरे शिक्षामन्त्री धर्मेन्द्र प्रधानः भारतीय भाषाभ्यः विशिष्टाम् एकां वाहिनीं समेत्य शिक्षाविभागस्य अनेकेषां महत्वपूर्णोपक्रमाणामपि उद्घाटनं विधास्यति। एतेषु उपक्रमेषु वृत्तिसञ्चार मार्गदर्शन सम्बद्धाः दिङ्निर्देशाः, विद्यालयेषु च स्यूतरहिताः 10 दिवसीय सम्बद्धाः दिङ्निर्देशाः अपि सम्मिलिताः सन्ति। राष्ट्रिय परीक्षाभिकरणेन NTA इत्यनेन सामान्य विश्वविद्यालयीय प्रवेश परीक्षायाः परिणामाः उद्घोषिताः। इयं प्रवेश परीक्षा 99,000+14,00,000 पञ्जीकृताभ्यर्थिभ्यः आयोजिता। अपि च मई मासस्य 15 दिनांकतः 29 दिनांकं यावत् प्रचलिता, या देशस्य 79,000+300 केन्द्रेषु समायोजिता। राष्ट्रिय महिला योगेन नवदिल्ल्याः पुरातन राजेन्द्र नगरस्य एकस्मिन् शैक्षणिक संस्थाने जलप्लावस्थितौ विद्यार्थी त्रयाणां घटनायाः संज्ञानं स्वीकृतम्। एकस्मिन् संचार पटले अनेन आयोगेन कथितं यत् मार्गेषु अपशिष्ट मलिन पदार्थानां उपेक्षा चिन्ताप्रदा वर्तते। आयोगेन अग्रे घोषितं यत् अस्मिन् प्रसंगे वादश्रवणं अग्रिममासस्य द्वितीये दिनांके भविष्यति। आयोगेन राजेन्द्र नगरस्य विधानसभायाः विधायकं दुर्गेश पाठकं विरुध्य निर्देशः प्रख्यापितः, अपि च वादश्रवणे आगमनाय तस्मै कठोराचरणमपि प्रख्यापितम्। प्रधानमन्त्री ह्यः सगर्वं व्यक्तम् अकरोत् यत् असमस्य चराईदेव मैडम इति यूनेस्को इत्यस्य विश्वन्यासस्थलस्य सूच्यां समाविष्टम्। ह्यः प्रातः आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे राष्ट्रं सम्बोधयन् प्रधानमन्त्रिणा कथितं यत् अस्यां सूच्यां भारतस्य स्थलमिदं 43वां भविष्यति। पुरुषाणां क्रिकेट प्रतिस्पर्धायां भारतीय दलेन पल्लेकेले इत्यत्र जाते द्वन्द्वे DLS इत्यमुना विधिना श्रीलंकादलं 7 स्तोभैः पराजितम् इति वार्ताः।